ॐ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। ॐ शान्ति शान्ति शान्तिः।
धन्यवादः भगिनि
महोदय। अहं प्रारम्भे नास्ति, कुत्र अस्ति महोदय श्लोक, प्रार्थनाश्लोक?
उषा भगिनि भवती वक्तुम्
इच्छति? अष्टाध्यायम् अस्ति भगिनि।
धन्यवादः भगिनि।
अस्तु, धन्यवादः भगिनि। अस्तु, सर्वेभ्यो नमः, स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र हलन्तस्त्रीलिङ्गशब्दाः। अस्मिन् विषये वयं किञ्चित् पठितवन्तः गतवर्गे अपि, तत्र करपत्रमपि अस्ति, तत्र ईमेल् द्वारा प्रेषितं करपत्रम् अस्ति, तत्र वयं बहु किमपि कृतवन्तः, केवलम् एकमेव पुटम् अस्ति इति तत् कृत्वा पुनः तत्र गीतासोपाने तत्र गीतासोपानम् आगच्छामः। अस्तु, तर्हि तत्र नूतनतया अन्य कोऽपि अवेदा भगिनि, नमस्कारः भगिनि।
नमस्कारः महोदय। नमस्कारः।
नमस्कारः। अस्तु, तर्हि तत्र सर्वेषां पार्श्वे करपत्रम् अस्ति इति मन्ये, तत्र नो चेत् तत्र ईमेल् द्वारा अस्ति, ईमेल् द्वारा प्रेषितम् अस्ति, यदि नास्ति चेत् वदतु, अहं चाट् मध्ये लिङ्क् प्रेषयामि। अस्तु, तर्हि तत्र
चाट् मध्ये प्रेषयतु।
अस्तु भगिनि, एकनिमिषः। हा, एकनिमिषः, तत्र कुत्र अस्ति? एकनिमिषः भगिनि। हा, अस्तु, अत्र अस्ति। हा, इदानीं प्राप्तं वा भगिनि? तत्र चाट् मध्ये स्थापितवान्। अस्तु, तर्हि तत्र तत्र करपत्रे तद् एकं करपत्रं तदस्ति, अन्यत् करपत्रं तत्र स्वरूपमहोदयेन कृतं करपत्रमपि अस्ति। तत्र आरम्भे तत्र केवलं पुनःस्मरणार्थं तत्र एतत् कुर्मः, तत्र नरेश् महोदय, तत्र भवत्शब्दस्य रूपाणि एकवारं वदति वा?
भवत्
भवत्
भवान् भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवते भवद्भ्यां भवद्भिः भव न तृतीया तु
भवता
भवद्भिः
चतुर्थी
भवते भवद्भ्यां भवद्भ्यः पञ्चमी भवतः भवद्भ्यां भवद्भ्यः षष्ठी भवतः भवतोः भवतां भवति भवतोः भवत्सु।
हा इति, अस्तु, समीचीनम्। अस्तु, इदानीं तत्र शोभा भगिनी, अग्रे तत्र मरुत् शब्दस्य केवलं तत्र एकवचने तृतीया विभक्तितः सप्तमीपर्यन्तम् एकवचने
मरुत् 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 इति प्रातिपदिकं, तृतीया मरुता मरुते मरुतः मरुतः मरुति
इत्येव तावदेव। धन्यवादः भगिनी, समीचीनम्। अस्तु, वेदा भगिनी, इदानीं तत्र सृक् इति सृक् सृजौ सृजः सृजः सृक् सृजौ सृजः, किन्तु तत्र तृतीयातः सप्तमीपर्यन्तम् एकवचने
तृतीया सृक् सृजौ सृजः। ओके, सृज सृग्भ्यां सृग्भिः, सृजे सृग्भ्यां सृग्भ्यः, सृजः सृग्भ्यां सृग्भ्यः, स्रजः स्रजोः स्रजां सजी स्रजोः
स्रक्षु इति अस्ति. हा अस्तु, किन्तु सर्वे स्मरन्ति खलु तत्र एकवचने बहु सुलभः अस्ति, तत्र तृतीया विभक्तितः सप्तमीपर्यन्तं तत्र यथा भवत् शब्दस्य रूपाणि सन्ति तादृशमेव तत्र अन्यानि, तत्र भवता भवते भवतः भवतः भवति तादृशं तत्र स्रजा स्रजे स्रजः स्रजः स्रजि, अथवा सरित् स्वीकुर्मश्चेत् तत्र सरिता सरिते सरितः सरितः सरिति इति. अतः तत्र एकवचने बहु सुलभमस्ति तत्र मनसि स्थापितुं कष्टः नास्ति एव इति. अस्तु, इदानीं तत्र अग्रे अरुणा भगिनी तत्र इदानीं तत्र वाक् इति पदस्य वाच् तस्य रूपाणि एकवारं तत्र करपत्रे अस्ति तत् वाच् इति पदस्य रूपाणि स्त्रीलिङ्गपदं तस्य रूपाणि सर्वाणि रूपाणि एकवारं पठति वा?
कुत्र अस्ति महोदय करपत्रे?
एतत् स्वरूपमहोदयस्य करपत्रे अस्ति, नो चेत् गीतासोपने अस्ति. यदि तत्र भवत्याः पार्श्वे नास्ति चेत् चिन्ता मास्तु, तत्र एकवचने वदतु तृतीयातः सप्तमीपर्यन्तं किं किम् अस्ति.
वाच् महोदय,
वाच्
वाक् वाक् वा वाग् वाचौ वाचः हे वाग् हे वाचौ हे वाचः वाचं वाचौ वाचः वाचा वाग्भ्यां वाग्भिः वाचे वाग्भ्यां वाग्भ्यः वाचः वाग्भ्यां वाग्भ्यः वाचः वाचोः वाचां वाचि वाचोः वाक्षु.
हा, धन्यवादः भगिनि. अस्तु, एतत् केवलं पुनस्मरणार्थम्. इदानीं तत्र वयं प्रायशः तत्र करपत्रे यत् इदानीं चाट् मध्ये प्रेषितं तत्र तु वयं बहु किमपि कृतवन्तः. इदानीं तत्र अभ्यास सप्तविंशतिः अभ्यासः यः अस्ति तम् अभ्यासं कुर्मः. अतः तत्र अन्यत् कृतवन्तः इति तस्य पूर्वं तस्मात् पूर्वं सर्वं कृतवन्तः इति मन्ये. अतः अभ्यासः सप्तविंशतिः तत्र कः आरम्भं, ललिता भगिनी आरम्भं कर्तुम् इच्छति वा?
सप्तविंशतिः न प्रदत्तः वाक्यानि बहुवचने परिवर्त्य लिखत.
सत्यम्.
एकवचने उदाहरण सम्पत् गर्वं जनयति. बहुवचने सम्पदः गर्वं जनयन्ति. अनन्तरं शिशूनां वाक् मधुरा. शिशूनां वाक् वाचः मधुराः.
हा, किमर्थं मधुराः तत्र विशेषण विशेषभावः अस्ति इति समीचीनम्. इदानीं तत्र शिशूनां वाचः मधुरा
बहुवचन षष्टिविभक्ति
बहुवचन समीचीनम्. इदानीं शिशूनां वाचः मधुराः हा समीचीनम्. इदानीं तत्र वाचः मधुराः इति तत्र तस्य अथवा वाक् मधुरा इति तस्य वाक् मधुरा इति एव स्वीकुर्मः तत्र तस्य तृतीयविभक्तिरूपं किं भवति? केवलं वाक् मधुरा
मधुरा एव
न भवती एव उक्तवती तत्र विशेषणविशेषभावः अस्ति. अतः
एकवचने मधुरा वाचा मधुरा
न न मधुरा इति आकारान्तपदम् अस्ति खलु, अतः तत् तस्य पदस्य तृतीय आवश्यकम्.
रमावत्
मधु रमया मधुरया मधुराभ्यः मधुरेभिः
किञ्चित् संशयः अस्ति वा भगिनि, तत्र अन्य कोऽपि वक्तुम् इच्छति वा किम् अस्ति इति?
मधुरया माला मालया मालाभ्यां मालाभिः सो मधुराभिः
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 तावदेव. अस्तु समीचीनं. संशयः आसीत्
भवत्याः
तावदेव, चिन्ता मास्तु भगिनि, सत्यं समीचीनम्.
अस्तु
भविष्यसुधा भगिनी नमस्कारः, श्रीप्रिया भगिनी नमस्कारः.
इदानीं
तत्र एकनिमिषं भगिनी, तत्र ईमेल् द्वारा प्रेषितम् अस्ति तत्र, किन्तु पुनः एकवारं तत्र चाट् मध्ये प्रेषयामि. चाट् मध्ये प्रेषितम् अस्ति इदानीं तत्र पि डि एफ़् फैल् मध्ये अभ्यासः 27 अन्तिमपुटद्वयम् अत्र स्मः. अस्तु तर्हि इदानीं तत्र इदानीं शोभा भगिनी अग्रे.
आं महोदय, तत्र वाक् अभवत् जीवने विपद् आगता. जीवने विपद् आगता इत्युक्ते सम्पदः गर्वं जन बहुवचने. जीवने विपदः आगताः.
जीवने विपदः आगताः इति. अस्तु इदानीं तत्र विपद् आगता इति स्वीकृत्य तत्र तस्य चतुर्थी विभक्ति रूपं किम् अस्ति?
तत्र विपदे इति भवति चतुर्थी एकवचने. विपद्भ्यः इति भवति वा महोदय? विपद्
एकवचने, केवलम् एकवचने.
विपदे जीवने
जीवने त्यजामः, केवलं विपदे. इदानीम् आगतापि तस्य परिवर्तनमपि आवश्यकम्.
आगता इति ताप्रत्ययः,
आकारान्तपदम्.
आकारान्त अस्तु अस्तु. तत्र आगता इति आकारान्त अस्ति चेत्
अस्तु अस्तु. एकनिमिष भगिनि, विपद् आगता तस्य बहुवचनं जीवने विपद् आगता. इदानीं बहुवचनं किं?
विपदः आगत विपदः आगताः.
अस्तु, अतः तत्र विशेषणविशेषभावः अस्ति खलु?
आम्.
अतः एव तत्र आगता इति अस्ति. आगता किमर्थमस्ति स्त्रीलिङ्गे? किमर्थमस्ति आगता इति
स्त्रीलिङ्गे?
स्त्रीलिङ्गम् अस्ति, समीचीनं भगिनि. अतः तत्र आगता इति, तत्र विशेषणविशेषभावः अस्ति. अतः तत्र यदि विपद् इति पदस्य विभक्तिरूपं तत्र तृतीयविभक्तिरूपं स्वीकुर्मः, आगता इति पदस्य अपि तृतीया भवति खलु?
विपदा भवति वा?
न न, विपदे इति तृतीया अस्ति चेत्
विपदा,
तृतीया अस्ति चेत् विपदा.
विपदया
न भगिनि, विपद् तृतीया यदुक्तं, विपद् विपदा दकारान्तपदं.
लता अस्ति चेत् लतया नन्तरं लतायै.
अस्तु 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 इदानीम् अस्तु समीचीनम्. इदानीं तत्र तृतीया अपि चतुर्थी द्वयमपि कुर्मः. तत्र तृतीया किम् अस्ति? विपदा.
विपदा तृतीया विपदा, अपि च चतुर्थी अस्ति चेत् विपदायै.
न न न, अस्तु एकनिमिष, चतुर्थी इदानीं मास्तु, तृतीया कुर्मः प्रथमतया. विपदा इदानीं विपद् विपदा भवति. आगता किं भवति?
विपदा भवति चेत्
तत्र वाचा मधुरया अतः विपदा
आगतया
आगता लतात्मवत् लता इति पदस्य तृतीया एकवचनं लतया
किन्तु तत्र आगता इति क्रियापद इव भवति किल महोदय
हा क्रियापदं सूचयत् क्रियां सूचयति किन्तु तत्र विशेषणम् अस्ति खलु भगिनि नामपदमेव खलु लताशब्दवत् अस्ति किन्तु तत्र आगतः तत्र आगतः इति तत्र आगतः अथवा आगता इति तत्र विशेषणम् अस्ति सा आगता अस्ति अतः नामपदमेव क्रियापदं नास्ति अपि कर्तृसूचकं अपि कर्तृसूचकं तत्र कर्तृपदं सूचयति अत्र पुस्तकं पठितं पुस्तकम् इति यदस्ति तादृश नास्ति तत्र पठितं पुस्तकं तत्र कर्मरूपम् अस्ति
परन्तु तत्र गत्यर्थकधातुः अस्ति महोदय
अतः एव कर्तृ अपि भवितुम् अर्हति हा सत्यं भगिनि हा
परन्तु कर्मार्थे अपि भवितुम् अर्हति
किन्तु अत्र कर्त्रार्थे स्वीकृतं सत्यं किन्तु आगता इति आकारान्त स्त्रीलिङ्गनामपदम् अतः तत्र शुभ भगिनी अतः तृतीया एकवचने
आगतया इति भवति
न विपदा आगतया अतः एव तत्र किञ्चित् अभ्यासम् आवश्यकम् अस्तु
विपदा आगतया
इदानीं चतुर्थी
अस्तु महोदय तत्र किं भवति तत्र लता इति लतायै भवति अस्तु विपदायै
न किमर्थम् अतः तत्र भगिनि अतः हलन्तशब्दं भिन्नं सत्यं भगिनि अस्तु पुनः एकवारम् एतत् स्मरामः भगिनि तत्र अस्तु तत्र वंशीसुधा भगिनि तत्र वदतु तत्र भवशब्दस्य एकवचने तत्र तृतीयातः सप्तमीपर्यन्तं किं किम् अस्ति इति भवत्शब्दस्य
सर्वं वदामि भवान् भवन्तं भवता भवति
न केवलं न तत्र क्लेशः भवति केवलं तृतीया
भवता भवते भवता
भवता भवते पञ्चमी चतुर् षष्टि
भवतः भवतः भवति
सप्तमी भवति हलन्तपदानां विषये एतत् स्मर्तव्यम् अस्ति तत्र भवत्शब्दस्य तृतीयातः सप्तमीपर्यन्तम् एकवचने भवता भवते भवतः भवतः भवति अतः
महोदय तत्र विपद् इति कर्तृप्रदं भवति किल विपद् आगताः इति तत्र
विपदः आगताः सत्यं
तत् कर्मपद कर्तृपदम् अस्ति किल तत्र
कर्तृपदमेव
तस्य विशेषणम् आगता इति भवति
सत्यम् अस्तु तर्हि तत्र इदानीं शोभा भगिनी तत्र विपद् इति भवत् शब्दवत् खलु हलन्तपदम्
आम् महोदय
अतः तत्र तृतीयातः सप्तमीपर्यन्तं विपद् शब्दस्य रूपाणि वदतु एकवचने एव
विपदा विपदे विपदः विपदः विपदि
विपदि अस्तु इदानीम् अस्तु इदानीं चतुर्थी किं
विपदे
इदानीम् आगता इति अजन्तपदम् अस्ति अतः तत्र तस्य आकारान्त स्त्रीलिङ्ग पदम् इति कृत्वा तस्य चतुर्थी एकवचनरूपम् अस्ति
तत्र एव
लता किम् अस्ति लतायै आगता
आगतायै भवति वा महोदय
सत्यं भगिनि आगता आगतायै सीता सीतायै विपदे
महोदय तादृशः प्रयोगः न दृष्टवती
अतः तत्र विशेषणविशेषभावः अस्ति इति कृत्वा तत्र किं भवति समानविभक्तिरूपम् आवश्यकं समानविभक्त्यन्तम् आवश्यकं किन्तु रूपाणि भिन्नानि भवन्ति यदि हलन्तपदम् अस्ति वा अजन्तपदम् अस्ति वा इति कृत्वा तत्र क्लेशः भवति अतः एव तत्र अत्र तु अभ्यासे किम् अस्ति केवलं बहुवचनं करोतु इति अस्ति, किन्तु यदि अन्यविभक्तिरूपमपि कुर्मः तत्र लाभदायकः अस्ति.
अस्तु महोदय, तत्र यदि पञ्चमी षष्टि करोमि चेत् विपदः इति भवति, तत्र तत्र लतायाः इति भवति, आगतायाः इति भवति वा?
समथिङ्ग्, समीचीनं समीचीनं. हा, विपदः
विपदः आगतायाः आगतायाः
आगतायाः अपि सप्तमी,
अपि च सप्तमी विगत विपदि तत्र
लतायाम्
आगतायाम्
इति.
ओ, तत्र आगतायां विपदि. तत्र महोदय मह्यं तत्तु शत्रन्त इति श्रूयते, किन्तु नास्ति,
किन्तु नास्ति, किन्तु नास्ति अपि प्रायशः सर्वदा किम् अस्ति तत्र वयं चिन्तयामः, तत्र विशेषणम् अस्ति चेत् पूर्वं भवति इति, तत्र आगता विपद् इति. किन्तु अत्र यथा भवत्या उक्तं तत्र किमस्ति, तत्र क्रियापदम् इव तत्र स्थापितमस्ति.
आं महोदय,
किन्तु विशेषणम् अस्ति, विशेषणम् अस्ति तत्र, जीवने विपद् आगता अस्ति अथवा जीवने विपदः आगताः सन्ति.
आगताः सन्ति महोदय, एकवारं सर्वाणि रूपाणि
कुर्मः कुर्मः कुर्मः, अहम् अन्यान् पृच्छामि इदानीम्.
अस्तु
अस्तु, इदानीं तत्र श्रीप्रिया भगिनि, नमस्कारः भगिनि.
नमस्ते नमस्ते.
नमस्कारः भगिनि, इदानीं तत्र एतदेव तत्र विपद् आगता इति, तत्र तृतीय, किन्तु एकवचने द्विवचने बहुवचने करोति वा? विपद् आगता,
विपद् आगता, विपदा आगतया, विपद्भ्याम् आगताभ्याम्, विपद्भिः आगताभिः.
आगताभिः, समीचीनं भगिनि, समीचीनं. अस्तु, अग्रे वेदा भगिनि, इदानीं चतुर्थी तत्र
विपदे, विपदे चतुर्थी विभक्ति आगता रमायै, आगतायै,
विपदे आगतायै,
विपद्भ्यां, विपद्भ्यां
रमाभ्याम् आगताभ्याम्
आगताभ्यां विपद् विपद्भिः चतुर्थी विभक्ति विपद्भ्यः विपद्भ्यः आगतभ्यः.
तत्र लतभ्यः अस्ति वा अथवा रमभ्यः अस्ति वा रमाभ्यः अस्ति वा? समीचीनं भगिनि, अस्तु. इदानीं तत्र समीचीनं भगिनि, अस्तु. इदानीम् अरुणा भगिनि, तत्र पञ्चमी वा षष्ठी वा त्रिषु वचनेषु विपद् आगता
षष्ठी,
षष्टि करोतु भगिनि. अस्तु,
विपदः विपदोः विपदः रमायाः.
अस्तु, एकवारं तत्र भगिनि यथा भवती उक्तवती तदपि समीचीनम्, एकवारं विपद् इति तस्य वदतु, तदनन्तरम् आगता इति तस्य वदतु, तदनन्तरं यो तत्र
विपदः विपद्भ्यां विपदां
विपदां
दकार तकार महोदय विपदां अमचामि विपदां आगता आगत्याः
लतायाः खलु आगतायाः
आगतायाः आगत्याः
तयोः आगतां
लता लता इति
आगतायाम् आगतायाम्
न न लता लता इति पदस्य षष्टि बहुवचनं किम् अस्ति एतदेव तत्र हलन्तपदस्य विषये मनसि स्थापितं भवति चेत् अजन्तपदं गच्छति इदानीं मिलित्वा वदतु भगिनि
द्विपदः
आगतायाः आगतायाः विपदः
पदः आगतायाः आगतयोः
विपदोः विपदोः समीचीनं भगिनि हा इदानीम् आगतानाम्
आगतानां विपदां
विपदाम् इति समीचीनं भगिनि अस्तु इदानीं ललिता भगिनी तत्र उषा भगिनी अस्तु अस्तु सप्तमी वदतु भगिनि अस्तु अस्तु
महोदय सत्यमेव विपद आगतः महोदय
अस्तु उषा भगिनी सप्तमी
विपदि आगतायां विपदोः आगतयोः
आगतयोः
आगतयोः विपत्सु आगतासु
आगतासु समीचीनम् आगतासु विपत्सु समीचीनं भगिनि धन्यवादः अस्तु तर्हि अग्रे गच्छामः इदानीं तत्र नरेश मोदी अग्रिमवाक्यं
अत्र परिषत् प्रचालति किं बहुवचनं
बहुवचनं केवलं बहुवचनं
अत्र परिषतः प्रचलन्ति
परिषत् तत्र परिषत् कीदृशपदमस्ति परिषत् इति
परिषद् अस्ति न महोदय
परिषदः इति परिषदः
परिषदः प्रचलन्ति
परिषदः प्रचलन्ति अस्तु परिषदः प्रचलन्ति अस्तु समीचीनं
किमर्थं परिषद् तत्र दत्तमस्ति महोदय अत्र
एकवचने तदेव रूपम् अस्ति भगिनि तत्र परिषत् परिषदौ परिषदः इति
परिषद् भवति
किन्तु परिषत् अपि समीचीनमेव बहुवचने धकारान्त एव भवति अतः तत्र वयं जानीमः खलु तत्र बहुवचन प्रथमविभक्ति बहुवचनरूपं दृष्ट्वा एव वयं वक्तुं शक्नुमः प्रातिपदिकस्य अन्तिमवर्णः कः इति अस्तु अग्रे वंशीसुधा भगिनी अग्रे
योषित् जलम् आनयति तत्र तकारान्तपदम् इति भाति
न न तकारान्त एव तकारान्त एव अत्र
तकारान्त एव
तत्र प्रथमे पुटे अस्ति भगिनि एतदेव तत्र
अस्तु अस्तु तदेव तत्र भ्रमः जातः महोदय कुत्र तकारान्त अस्ति कुत्र परिषद् इति दकारान्त अस्ति अस्तु योषितः जलम् आनयति
आनयन्ति
ओ क्षमता आनयन्ति
योषितः जलम् आनयन्ति समीचीनम् अस्तु अग्रे श्रीप्रिया भगिनि
क्षम्यतां सरित् प्रवहति सरितः प्रवहन्ति
सरितः प्रवहन्ति समीचीनं वेदा भगिनी अग्रे
उपनिषत् ब्रह्मतत्त्वं बोधयति उपनिषदः
उपनिषदः
ब्रह्मतत्त्वं उपनिषदः ब्रह्मतत्त्वं बोधयन्ति
उपनिषदः ब्रह्मतत्त्वं बोधयन्ति. समीचीनं भगिनि. हा अस्तु, अग्रे शोभा भगिनि.
विद्युत् शीघ्रगामिनी वर्तते. विद्युतः शीघ्रगामि अस्तु, तत्र शीघ्रगामिनी नद्यः विद्युत् न विद्युत् विद्युतः शीघ्रगामिनी वर्तन्ते एव.
पुनः भगिनि, तत्र वर्तन्ते इति क्रियापदं समीचीनं, विद्युत् स्थाने विद्युतः समीचीनं, किन्तु शीघ्रगामिनी इति कीदृशपदमस्ति
वा महोदय? तत्रापि परिवर्तनं भवनीयं वा, भवितव्यं वा?
तत्र अस्माकं नियमः कः भगिनि? तत्र विशेषणविशेष्यं यत्र अस्ति तत्र विशेषणविशेष्यभावः, तत्र किं समानलिङ्गं, समानवचनम् अपि समानविभक्तिः खलु? अतः तत्र यदि विद्युत् वर्तते इति, केवलं विद्युत् वर्तते इति आसीत् चेत् तत्र विद्युतः वर्तन्ते, किन्तु तत्र शीघ्रगामिनी इति अस्ति. तत्र का शीघ्रगामिनी?
विद्युत् शीघ्रगामिनी.
हा, विद्युत् एव शीघ्रगामिनी, अतः तत्र विद्युतः अस्ति, विद्युतः भवति चेत् तत्र
विद्युतः शीघ्रगामिन्यः वर्तन्ते.
हा इति, विद्युतः शीघ्रगामिन्यः वर्तन्ते. समीचीनम्, अस्तु अस्तु, अग्रे अरुणा भगिनि. अरुणा भगिनि, इदानीं तत्र अप्सरा इति पदम् अस्तु, नो चेत् ललिता भगिनि.
वदामि. अप्सराः तपोभङ्गं करोति. अप्सरसः तपोभङ्गं, अप्सरसः अप्सरसौ
अप्सरसः, अप्सराः अप्सरसौ
अप्सरसः.
समीचीनमेव यत् भवती उक्तं,
तपोभङ्गं कुर्वन्ति.
हा, तपोभङ्गं कुर्वन्ति, समीचीनं भगिनि. अप्सरसः तपोभङ्गं कुर्वन्ति, समीचीनम्, अस्तु. अग्रे उषा भगिनि.
महोदय, कानने समित् वर्तते. समित् दकारान्तः अस्ति, अतः कानने समिधः वर्तन्ते.
हा, समिधः वर्तन्ते कानने, कानने समिधः
वर्तन्ते.
समीचीनं भगिनि, अस्तु. अग्रे नरेश महोदय.
दृक् विशाला अस्ति. दृशः दृशः विशालाः सन्ति.
हा, तत्र दृक् इति, तत्र किं भवति, तत्र दृक् रूपं किं भवति?
अहं चिन्तयामि दृक् दृशौ दृशः.
हा, समीचीनं महोदय. हा, दृक् दृशौ दृशः, दृशः स्त्रीलिङ्ग, तत्र दिश् पदमिव शकारान्तपदं. दृक् विशाला अस्ति,
विशालाः सन्ति,
विशालाः सन्ति, समीचीनं. हा, इदानीं तत्र अत्रापि तत्र विशाला इति पदं कीदृशपदमस्ति, दृक् इति, तत्र सम्बन्धः कः तयोः मध्ये?
स्त्रीलिङ्ग पदमस्ति.
हा, अपि विशाला अपि दृक् तयोः मध्ये कीदृशसम्बन्धः?
विशेष्य.
अतः तत्रापि तत्र आपद् आगता इति स्वीकर्तुं शक्नुमः, अतः किञ्चित् प्रयत्नं कुर्मः. अस्तु, वंशीप्रसुद भगिनि, तत्र दृक् विशाला अस्ति, इदानीं तत्र तृतीया विभक्ति किं भवति भगिनि?
तृतीया तु दृका भवति किल
न न दिश् शकारान्तपदम् अस्ति भगिनि
दृश् किल दृश्
दृश् दृशः शकारान्तपदम्
अस्तु दृशा विशालया
अस्तु अस्ति इति त्यजामः दृशा विशालया अस्तु केवलम् एकवचने कुर्मः नो चेत् अस्तु श्रीप्रिया भगिनी इदानीं तत्र दृक् विशाल इति तत्र चतुर्थी रूपं किम् अस्ति एकवचने
दृशाले विशालाये
न
दृशे विशालाये
हा दृशे विशालाये समीचीनम् अस्तु
इति किं कः अर्थः महोदय दृक्
दृक् कोऽपि वक्तुम् इच्छति वा तत्र अहं चिन्तयामि
दृष्टः
गेज् इति अस्तु तत्र अग्रे हा वेदा भगिनि इदानीं तत्र पञ्चमी षष्ठी एकवचने केवलम् एकवचने
पञ्चमी दिशः तत्र रमायाः तत्र
विशालायाः हा समीचीनम् अस्तु इदानीं शोभा भगिनी सप्तमी एकवचने
आम् आं महोदय दृशि विशालायां
समीचीनं
विशालायां
समीचीनं तावदेव अस्तु इदानीम् अग्रे गच्छामः अग्रिमाभ्यासः तत्र अरुणा भगिनी अस्ति वा
आं महोदय
हा अस्तु अग्रिमाभ्यास करोतु भगिनि
अभ्यासः अधो लिखितशब्दानां बहुवचनान्तरूपम् अन्त्यवर्णं च निर्दिश्यत प्रक्
स्रक् इति तत्र बहुवचनमस्ति स्रजः
जकारान्त स्त्रीलिङ्गशब्दः
हा वयं जानीमः तत्र हलन्तपदानां नियमः कः तत्र प्रथमविभक्ति बहुवचनरूपं दृष्ट्वा तस्य अन्तिमवर्णः एव तत्र प्रातिपदिकस्य अपि अन्तिमवर्णः इति अतः तत्र स्रक् यद्यपि स्रक् इति एकवचने अस्ति वयं जानीमः तत्र बहुवचने स्रजः इति एव अस्ति अतः जकारान्तपदम् इदानीम् आपत् इति आपदः अतः दकारान्तपदं प्रातिपदिकम् आपद् इति दकारान्तप्रातिपदिकं समीचीनं भगिनि अस्तु अग्रे ललिता भगिनी अग्रे समित् अपि अस्ति समित् अपि
समितः
हा दकारान्तपदं समीचीनं हा अस्तु अग्रे इदानीं उषा भगिनी अग्रे प्रावृट्
प्रावृषौ शकारान्तं महोदय
हा प्रावृषः शकारान्तपदं समीचीनं तत्र पूर्वम् एतद् दत्तमस्ति खलु तत्र प्रावृषः इति अभ्यास तत्र चतुर्थविंशति अभ्यासात् पूर्वं दत्तमस्ति अस्तु इदानीम् अग्रे किमस्ति आशीः इति अस्तु नरेश महोदय आशीः इति
आशीः बहुवचनं आशीषः आशीषः
आशिषः आशिषः न आशिषः समीचीनं महोदय आशीः आशिषौ आशिषः अतः शकारान्तपदम् अस्तु अस्तु समीचीनम् अस्तु वंशीसुध भगिनि
सरित् महोदय सरित् सरितौ सरितः
सकारान्तपदं समीचीनम् अस्तु श्रीप्रिया भगिनी
क्षम्यता महोदय, अन्म्यूट् कर्तुं
अस्तु भगिनि, चिन्ता मास्तु.
उपानत् इति अस्ति, उपानत् उपानत् दौ उपानतः वा महोदय, तकारन्तः
तकारन्तः इति एवं मन्ये भगिनि तत्र उपानत् इति.
उपानत् उपानतौ उपानतः
दकारान्त
इति वा,
उपानदः उपानदौ उपानदः.
उपानदः सत्यं सत्यं, क्षम्यतां, हा मम दोषः, हा सत्यं भगिनि, अस्तु दकारान्तपदं
किमस्ति उपानत्
उपानः वदतु भगिनि
उपानत् उपानः हकारान्त
हकारान्त वा
हकारान्तस्य शब्दः उपानत् उपानहौ उपानः
ओ अतः मम भ्रमः
शब्दमञ्जरी
महोदय अर्थः कः भगिनि विमला भगिनि अर्थः कः
शु
पादत्राणम् अस्तु 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 किन्तु तत्र एतत् पदम् अत्र न स्थापनीयं खलु एतत्तु तत्र क्लेशकरः अस्ति खलु एतत् पदं क्लेशकरम् अस्ति. धन्यवादः भगिनी विमला भगिनी, धन्यवादः. अस्तु अतः अस्तु समीचीनं, धन्यवादः भगिनी. अस्तु अग्रे अस्तु अतः श्रीप्रिया भगिनी अन्यत् करोतु एतत्तु.
अस्तु दिक् इति अस्ति शकारान्तः स्त्रीलिङ्गः दिक् दिश् शब्दः दिक् दिशौ दिशः
दिक् दिशौ दिशः समीचीनं शकारान्तपदं. इदानीम् अग्रे वेदा भगिनी.
आं महोदय क्षुत् क्षुदः धकारान्तपदं क्षुदौ क्षुदः.
अस्तु समीचीनं. शोभा भगिनी
संसत् इति संसद् इति प्रातिपदिकम् इति मन्ये महोदय संसत् संसदौ संसदः
संसदः समीचीनं. अस्तु अग्रे अरुणा भगिनि अन्तिमं तत्र अस्तु ललिता भगिनि अग्रे
उपनिषद् न उपनिषत् उपनिषदौ उपनिषदः दकारान्त शब्दः
दकारान्तपदम्. अस्तु तर्हि
महोदय प्रावृत् संशयः अस्ति, प्रावृत् वा बहुवचने प्रावृतः
तत्र तत्र पूर्वं तत्र कोष्टकं दत्तमस्ति भगिनि तत्र पश्यतु
दृष्टवती
अस्ति तत्र अधोभागे अस्ति अधोभागे अस्ति तत्र आशिष् पूर्वम् अस्ति प्रावृष्यति
आशिष्
अधोभागे अस्ति तत्र
आशिष् पूर्वं
कोष्टके आशिष् आशिष् उपरि अस्ति आशिष् इति पदम् अस्ति तस्य उपरि अस्ति प्रावृष्यति कोष्टके
मम करपत्रमस्ति
ओ करपत्रे इति वा न न करपत्रे करपत्रे न दत्तमस्ति तत्र स्वरमहोदयस्य करपत्रे न दत्तमस्ति तत्तु सत्यं तत्तु सत्यं प्रावृट् प्रावृषौ प्रावृषः इति
धन्यवादः मीनिङ्ग् अर्थं किमस्ति प्रावृत्
गतवर्गे अहम् उक्तवान् कोऽपि स्मरति वा
धन्यवादः
अतः अस्तु तर्हि इदानीं तत्र एकः एव अभ्यासः अस्ति तत्र तद् गृहपाठेन कर्तुं शक्नुमः अतः इदानीं पुनः गीतासोपानं गच्छामः तत्र प्रायशः पुट तत्र द्वितीय अध्यायः तत्र स्मः इति मन्ये तत्र तद् न तत्र सम्भाषणमस्ति सम्भाषणं न पठितवन्तः इति मन्ये अतः
तत्र एकपदम् अस्ति प्रतिपत् इति, तदपि दकारान्तपदमेव. प्रतिपत् प्रतिपदौ प्रतिपदः इति भवति वा?
प्रतिपत् इति
दकारान्तः एव खलु महोदय? तदपि प्रतिपत् प्रतिपदौ प्रतिपदः इति भवति वा?
अधोभागे अस्तु भगिनि, अधोभागे अभ्यास 29 मध्ये
अत्र सप्तम अस्ति भगिनि, प्रतिपत् प्रतिपदः इति. अस्तु तर्हि इदानीं तत्र पुनः गीतासोपानम् इति तत्र तत्र स्मः. अस्तु इदानीं तत्र वेदा भगिनि तत्र.
महोदय क्षम्यतां, गीतासोपानं मम समीपे पार्टु भाग द्वितीयभागः नास्ति.
द्वितीयभागः नास्ति वा? अस्तु तत्र किं कुर्मः, तत्र एकनिमिषः भगिनि.
नो चेत् अहं वाट्सप् मध्ये प्रेषयामि महोदय भवती.
ओके
धन्यवादः, नीत्वा प्रेषयामि, अधुना प्रेषयामि भगिनि. अस्तु
थेङ्क् यू, धन्यवादः.
अस्तु अस्तु तर्हि अस्तु तर्हि तत्र किं कुर्मः. अस्तु वेदा भगिनी,
पुटसङ्ख्या किं महोदय?
एतत्तु अष्ट
अष्टमपुट. अस्तु
तत्र प्रायशः अद्य तत्र किम् अष्ट नव दश कर्तुं शक्नुमः इति मन्ये. अस्तु तर्हि तत्र अस्तु वेदा भगिनी अपि तत्र शोभा भगिनी कर्तुम्
इच्छति वा? आम् महोदय, शोभा भगिनी करोति वा?
करोमि भगिनी. सुधामा, श्रीमान् अहं भवतः शिक्षार्थी भवितुम् इच्छामि.
हरिराम त्रिपाठी. अस्तु सुधामन्, किम् अध्येतुम् इच्छसि?
भगवद्गीताम् अध्येतुम् इच्छामि.
भगवद्गीतायाः एव अध्ययनं किमर्थम्?
यद्यपि अहम् एकत्र अधिकारी अपरत्र समाजसेवी अपि, अतः अहं गीताध्ययने आसक्तिमान् अस्मि.
योगिना कृष्णेन उक्तां गीतां भवान् इतः पूर्वम् अधीतवान् वा?
आम्, अन्ये केचन एतस्मिन् विषये उत्साहिनः सुहृदः मम परिचिताः सन्ति. तेषु एकः अनुभवशाली वणिक्, त्रयः कुशलिनः भिषजः, अन्ये च मम सहोद्योगिनः अधिकारिणः.
एतादृशाः शिक्षार्थिनः निरन्तरं कक्ष्याम् आगमिष्यन्ति वा?
आम्, निश्चयेन आगमिष्यन्ति, यतः मम सर्वे सुहृदः परिश्रमिणः, उत्साहिनः, गीतानुरागिणः च.
महान् सन्तोषः जातः, भवतां सर्वेषां गीताकक्ष्यां प्रति स्वागतम्.
अस्तु महोदय, पुनर्मिलाव.
हा अस्तु, बहु समीचीनमस्ति. अतः तत्र हलन्तपुल्लिङ्गशब्दानां परिचयः तत्र तत्र हलन्तपदानि कानि सन्ति तत्र स्थूलक्षरैः तत्र लिखितम् अस्ति. तत्र शिक्षार्थी इति प्रथमतया तत्र पश्यामः, शिक्षार्थी इति अस्ति. तत्र पूर्वं वयं स्वरूपमहोदयस्य कोष्टकमपि अन्यत् करपत्रमपि पठितवन्तः, अतः तत्र शिक्षार्थी इति तत्र कीदृशपदं?
शिक्षार्थिन्,
नकारान्तपदं. शिक्षार्थी इति नकारान्तपदं, समीचीनम्. अतः तत्र अपि तत्र प्रथमं वक्तुं
महोदय,
हा तत्र अतः रूपाणि कानि प्रथमविभक्तौ?
शिक्षार्थिनौ शिक्षार्थिनः.
हा समीचीनं, विद्यार्थी इति तत्र प्रसिद्धः अस्ति. हा विद्यार्थी पुल्लिङ्गे, स्त्रीलिङ्गे किम् अस्ति?
विद्यार्थिनी भवति महोदय.
हा विद्यार्थिनी स्त्रीलिङ्गे, हा समीचीनम्. इदानीं सुधामन्, वयं तु कथामपि पठितवन्तः सुधामन्, अतः तत्र तत्तु जानीमः.
तदनन्तरं भिन्नः सुधामन् अस्ति महोदय
किन्तु हलन्तपदमेव
नामपदं किन्तु
नाम
अहम् अर्थे उक्तवती
सत्यं सत्यं भगिनि सत्यं किन्तु तत्र रूपभेदः नास्ति अतः अहम् उक्तवान् सुधामन् इति तत्र दृष्टवन्तः अपि तदनन्तरम् अधिकारी इति तत्र कीदृशपदम् अधिकारिन् समाजसेवी आसक्तिमान् इति तत्र नकारान्तपदमेव तत्र आसक्तिमान् इति तत्र कीदृशपदम् इव अस्ति आसक्तिमान् इति तत्र तत्र द्वितीयविभक्तौ किम् अस्ति भवान् भवान् शब्दवत् आसक्तिमत् इति अस्तु भवान् इति जानीमः उत्साहिनः आसक्तिमान् इति तत्र तत्र अहं किम् उक्तवान् आसक्तिमान् इति तत्र आसक्तिमत् इति अस्ति प्रातिपदिकं प्रातिपदिकं तु आसक्तिमत् प्रथमाविभक्ति एकवचने आसक्तिमान् द्विवचने किम् अस्ति आसक्तिमन्तौवचने मन्तः बहुवचनरूपं दृष्ट्वा एव वयं वक्तुं शक्नुमः खलु अतः तकारान्तपदम् अस्तु तत्र उत्साहिनः तत्र तत्र उत्साहिनः सुहृदः इति अस्ति वचनं किं तत्र
बहुवचनं
एकवचने किम् अस्ति
उत्साहिनः
इदानीं सुहृत् सुहृदः इति अस्ति अतः उत्साहिनः सुहृदः तस्य एकवचनरूपं किं भवति उत्साहि सुहृद् समीचीनम् इदानीम् अभि अनुभवशाली वणिक् तत्र शालिन् अनुभवशालीन् वणिक् अनुभवशाली इति
महोदय तत्र उत्साही भवति किल उत्साह गुणी शब्दवत् गुणी गुणिनौ गुणिनः अतः उत्साही
उत्साही सत्यं भगिनि उत्साही उत्साहिनौ उत्साहिनः गुणी गुणिनौ गुणिनः तत्र यस्मिन् उत्साहः अस्ति सः उत्साही अतः तत्र उत्साहिनः तत्र अनुभवशाली वणिक् तत्र बहुवचनरूपं किम् अस्ति वणिजः अस्तु इदानीं तत्र कुशलिनः विषजः बहुवचनरूपम् अस्ति एकवचनरूपं किम् अस्ति अपि तत्र मम सहोद्योगिनः एकवचने अधिकारी इदानीं शिक्षार्थिनः इति दृष्टवन्तः शिक्षार्थी शिक्षार्थिनः अस्तु परिश्रमिणः उत्साहिनः गीतानुरागिणः इति अस्तु इदानीं तत्र पङ्क्तिशः पश्यामः तत्र किं किम् अस्ति इति तत्र एकवारं तत्र रूपं हलन्तपदानां रूपं दृष्टवन्तः इदानीं तत्र पश्यामः श्रीमन् सम्बोधनम् अहं भवतः शिक्षार्थी भवितुम् इच्छामि शिक्षार्थी भवितुम् इच्छामि अतः तत्र हरिराम त्रिपाठी किं वदति अस्तु सुधामन् सम्बोधनं किम् अध्येतुम् इच्छसि तत्र तुमुन् भवितुम् अध्येतुम् अध्येतुम् इत्युक्ते अन्यत् पदं किं तत्र स्थापितुं शक्नुमः अध्येतुं स्थाने पठितुं अध्ययनं तत्र अध्ययनं कर्तुम् अध्येतुं भगवद्गीताम् अध्येतुम् इच्छामि भगवद्गीतायाः अध्ययनं
कर्तुं
तत्र तत् पठितुं तत्र तस्य तत् कर्तुम् इच्छामि भगवद्गीतायाः एवम् अध्ययनं किमर्थं तत्र भगवद्गीतां पठितुम् इच्छसि किन्तु किमर्थम् अतः सः वदति सुधामा वदति यद्यपि अहम् एकत्र अधिकारी अपरत्र समाजसेवी अपि सः एकत्र किम् अस्ति अधिकारी अस्ति अपरत्र समाजसेवी अतः तत्र केवलं तस्य कार्यविषये तस्य उत्साहः नास्ति किन्तु समाजविषये अथवा तत्र अन्येषु विषयेषु अपि तस्य अभिरुचिः अस्ति इति अतः तत्र समाजकल्याणं वा लोककल्याणं तस्मिन् विषये अपि तस्य अभिरुचिः अस्ति इति सः प्रकटीकरोति अतः अहं गीताध्ययने आसक्तिमान् अस्मि आसक्तिमान् इत्युक्ते तत्र आसक्तिमान् पुनः आसक्तिमत् इत्युक्ते मत् यत्र भवति तत्र तस्मिन् अथवा तस्य तस्मिन् अस्ति इति तत्र मतु प्रत्यय इति वदामः हा अतः तत्र तस्मिन् आसक्तिः अस्ति
यस्मिन् आसक्तिः अस्ति
सः आसक्तिमान् समीचीनम् अतः तत्र तस्य आसक्तिः कस्मिन् विषये अस्ति गीताध्ययने आसक्तिः अस्ति अतः गीताध्ययने आसक्तिमान् अस्मि तत्र इदानीं योगिना कृष्णेन उक्तां गीतां भवान् इतः पूर्वम् अधीतवान् वा अत्र पश्यामः तत्र नरेश महोदय तत्र अस्मिन् वाक्ये तत्र विशेषणविशेषभावः अस्ति वा तत्र कोऽपि किमपि पदम् अस्ति वा विशेषणं पदम् इति
योगिना कृष्णेन
हा योगिना हा तत्र योगिना कृष्णेन प्रथमविभक्तिरूपं किम् अस्ति
योगी कृष्णः
हा योगी कृष्णः तेन उक्तां गीतां तत्र उक्तां गीतां तत्र कीदृशः सम्बन्धः
तदपि विशेषणविशेष्यमस्ति
भावः हा विभक्ति का तत्र
द्वितीयविभक्ति
हा तत्र द्वितीयविभक्ति योगिना कृष्णेन तत्र तृतीया उक्तां गीतां तत्र द्वितीया इदानीं प्रथमाविभक्ति तत्र विशेषणविशेष्य पदद्वयमपि अस्ति वा
आम् पूर्वम् अधीतवान्
अधीतवान् अधीतवान् इति अस्ति तत्र लिङ्गं किम्
अधीतवान् पुल्लिङ्गम्
तद् विशेषणं वा विशेष्यं वा
विशेष्यं विशेषणं वा अधीतवान् भवान्
हा समीचीनं विशेष्यम् अस्ति भवान् विशेषणम् अस्ति अधीतवान् अधीतवान् भवान् इतः पूर्वम् अधीतवान् वा अग्रे धन्यवादः महोदय अस्तु अग्रे वंशीसुधा भगिनी अग्रिमवाक्यम्
आं महोदय पठामि आम् अन्ये केचन एतस्मिन् विषये उत्साहिनः सुहृदः मम परिचिताः सन्ति अग्रे अपि पठामि वा महोदय
किन्तु तत्र किञ्चित् अपि वदतु तत्र किमस्ति तत्र
आम्
परिचिताः सन्ति
अन्ये केचन एतस्मिन् विषये उत्साहिनः सुहृदः सन्ति अन्ये अपि उत्साहिनः सन्ति इति सुदामा उक्तवान्
कस्मिन् विषये
एतत् अध्येतुम्
अध्ययने गीताध्ययने
गीताध्ययने अन्ये अपि उत्साहिनः सन्ति तस्य तस्य सुहृदः परिचिताः ये सन्ति ते अपि उत्साहिनः सन्ति ये सः
अस्तु समीचीनं तत्र उत्साहिनः सुहृदः मम परिचिताः
आम् महोदय
मम परिचिताः सन्ति
उत्साहिनः परिचिताः इति विशेषणविशेषभावः अस्ति किल महोदय?
तत्र मम परिचिताः सन्ति, ते कीदृशाः परिचिताः? उत्साहिनः.
तत्र सुहृदः पदस्य अपि अन्वयः भवति वा?
भवति भगिनि, भवति.
सुहृदः परिचिताः अपि भवितुम् अर्हति किल?
तत्र उत्तमः गुणसम्पन्नः रामः इति तत्र विशेषणद्वयं खलु? अत्रापि तत्र विशेषणद्वयम् इति तावदेव. उत्साहिनः सुहृदः इति अस्तु. तत्र अग्रे
तेषु एकः अनुभवशाली वणिक्, त्रयः कुशलिनः बिषजः, अन्ये च मम सहोद्योगिनः अधिकारिणः. अस्तु, तस्मिन् उत्साहिनः तेषु अनुभवशाली वणिक् इति एकः अस्ति, त्रयः कुशलिनः बिषजः तस्य सुहृदः, अन्ये च मम सहोद्योगिनः अधिकारिणः इति उक्तवान्. इत्युक्ते तत्र कुशलिनः बिषजः इति एव बहुवचनरूपम् अस्ति. न, मम सहोद्योगिनः अधिकारिणः
तत्रापि बहुवचनं, समीचीनं.
परन्तु अनुभवशाली वणिक् इति एकवचने अस्ति.
एकवचनमेव अस्ति. एकः अस्ति वणिक्, तदनन्तरं त्रयः बिषजः. अपि तदनन्तरं वयं न जानीमः सङ्ख्या का इति, किन्तु तत्र तत्र केचन अधिकारिणः वा अथवा सहोद्योगिनः सन्ति. ते सर्वे तत्र कीदृशाः सन्ति? ते सर्वे तत्र उत्साहिनः सन्ति. तत्र गीताध्ययनविषये ते सर्वे उत्साहिनः सन्ति. समीचीनं. अस्तु, अग्रे श्रीप्रिया भगिनि.
एतादृशाः शिक्षार्थिनः निरन्तरं कक्ष्याम् आगमिष्यन्ति वा?
सः प्रश्नः उत्तमः वा भगिनि? केवलम् उत्साहः अस्ति इति तु सत्यं, किन्तु तत्र सः पृच्छति तत्र निरन्तरं कक्ष्याम् आगमिष्यन्ति वा इति. अतः उत्तमप्रश्नः खलु तत्र. तत्र एतादृशाः शिक्षार्थिनः इति अस्ति. तत्र एकवचने कुर्मश्चेत् तत्र किं भवति?
एतादृशः शिक्षार्थी इति भवति.
एतादृशः शिक्षार्थी निरन्तरं कक्ष्याम् आगमिष्यति वा? समीचीनम्. अग्रे.
आम्, निश्चयेन आगमिष्यन्ति, यतः सर्वे सुहृदः परिश्रमिणः, उत्साहिनः, गीतानुरागिणः च.
सः कारणं वदति इदानीं. तत्र निश्चयेन ते कक्ष्याम् आगमिष्यन्ति. किमर्थं?
किमर्थं? ते सर्वे परिश्रमिणः, उत्साहिनः, गीता इच्छन्ति अपि.
तत्र गीताध्ययने उत्साहः अस्ति तेषाम्, अपि तत्र ते परिश्रमिणः, गीतानुरागिणः. तत्र गीतायाम् अनुरागः अस्ति तेषाम्. अनुरागः इत्युक्ते तत्र आसक्तिः इति तत्र, अथवा इच्छा इति तत्र. अतः गीतायाम् इच्छा अस्ति, अथवा तत्र गीताम् इच्छन्ति. तत्र गीतानुरागी, गीतानुरागिणः इति. समीचीनं भगिनि. अस्तु, वेदा भगिनी.
महोदय, क्षम्यतां महोदय. तत्र शिक्षार्थिनः इति गुणीशब्दः शिक्षार्थी इति भवति, पुल्लिङ्गशब्दः. परन्तु स्त्रीलिङ्गं, स्त्रीलिङ्गे किम् अस्ति पदं तु किं भवति?
शिक्षार्थिनी इति प्रायः अस्ति.
एवं वा? तत् परन्तु कोष्टके तु न दत्तम्, अतः अहं पृच्छन्ति अस्ति.
तत्र भगिनि कोष्टके इत्युक्ते तत्र गीतासोपाने वा अथवा?
न, भवान् यत् प्रेषितं न महोदय,
तत्र स्वरूपमहोदयस्य वा?
स्वरूपमहोदयस्य. अपि च
अत्र कत्र किम् अस्ति भगिनि? न, एक तत्र विद्यार्थी इति यत्र अस्ति पुल्लिङ्गपदं तत्तु विद्यार्थिन् इति नकारान्तप्रातिपदिकं हलन्तपदम्।
हा तत्तु समीचीनं, पुल्लिङ्गशब्दः अस्ति किल महोदय।
हा किन्तु विद्यार्थिनी यत्र अस्ति तत्तु अजन्तपदम् अस्ति, न दीवत्।
ओ अस्तु अस्तु, अवगच्छामि महोदय।
हा अतः तत्र विद्यार्थिनी अथवा शिक्षार्थिनी अस्ति चेत् तत्र नदी नद्यो नद्यः तावदेव, अतः तत्र हा
अवगच्छामि महोदय।
हा अत्र केवलं तत्र पुल्लिङ्गरूपं हलन्तपदे पदेषु आगतम्। अस्तु अस्तु, अग्रे इदानीम् अरुणा भगिनी। तत्र अस्ति वा? अस्तु, ललिता भगिनी अग्रे।
महान् सन्तोषः जातः। महान् महान्तौ महान्तः भवान् शब्दवत्
इति चिन्तयितुं शक्नुमः।
महान् सन्तोषः विशेषः,
कीदृशसन्तोषः? महान्
सन्तोषः
अपि जातः अपि तत्र विशेषणमेव अस्ति।
भवतः
जातः सन्तोषः जातः,
सन्तोषः जातः, कीदृशः सन्तोषः? महान्
सन्तोषः, समीचीनम्।
भवतां सर्वेषां गीताकक्ष्यां प्रति स्वागतम्।
तत्र भवतां सर्वेषां तत्र विभक्ति का?
षष्टिविभक्ति।
षष्टिविभक्ति
सर्वेषां षष्टिविभक्ति, भवतां षष्टिविभक्ति, गीताकक्ष्यां सप्तमी विभक्ति एकवचने।
न न न, गीताकक्ष्याम् इति अस्ति,
कक्ष्यां कस्यां?
तत्र कक्ष्याम् इति अस्ति चेत् तत्र प्रथमविभक्तिरूपं स्त्रीलिङ्गशब्दः अस्तु, तत्र प्रथमविभक्तिरूपं किं?
कक्षा,
हा अस्तु, तत्र कक्षा इति पदमस्ति, कक्ष्या इति पदमस्ति,
कक्ष्यां सप्तमी विभक्ति अस्ति,
न न कक्षायाम् इति प्रायशः, कक्षायां लतायां, किन्तु अत्र
कक्ष्याम् अस्ति,
कक्ष्याम् अस्ति। अपि अन्यत् तत्र अग्रिमपदं किम् अस्ति?
प्रति,
तत्र
प्रति
उपपदविभक्ति विभक्तयः जानीमः खलु तत्र, अतः तत्र किं भवति?
द्वितीयाविभक्ति।
गीता कक्ष्यां प्रति स्वागतम्। अस्तु अस्तु, तर्हि तत्र हलन्तपद पुल्लिङ्गपदानां परिचयः अत्र अस्ति। वयम् एतद् बहु किमपि अस्मिन् विषये बहु किमपि कृतवन्तः, पठितवन्तः, किन्तु तत्र पुनः एकवारं तत्र गीतासोपाने पठामः इति तावदेव। अस्तु तर्हि तत्र तदनन्तरम् अग्रे गच्छामः, अग्रिमे पुटे तत्र रूपाणि दत्तानि सन्ति, तत्र एकवारं तदपि पठामः। तत्र अग्रे उषा भगिनी अग्रिमे पुटे तत्र तत्र अग्रिमे पुटे तत्र किं कुर्मः तत्र तत्र एकवारं तत्र पठति वा शब्दः प्रातिपदिकम् इति यदस्ति तत्?
आं महोदय, अस्मिन् पाठे अस्माभिः पठिताः शब्दाः एतादृशाः सन्ति: शिक्षार्थी, भिषक्, वणिक्, अधिकारी, सुधामा, अनुभवशाली, कुशली, महान्, समाजसेवी, उत्साही। एतेषां प्रातिपदिकं वर्णक्रमः च एवं भवति: शब्दः प्रातिपदिकं, योगी प्रातिपदिकमस्ति, योगिन्, नकारान्तपदम्। शब्दः कर्म प्रातिपदिकमस्ति, कर्मन्, नकारान्तपदम्। वचः प्रातिपदिकं वचस्, सकारान्तपदम्। बिशक् प्रातिपदिकं विषज् जकारान्तपदं सुहृत् प्रातिपदिकं सुहृत् दकारान्तपदं विपश्चित् प्रातिपदिकं विपश्चित् एव तकारान्तपदम् आत्मा आत्मन् नकारान्तपदम् त्वक् प्रातिपदिकं त्वच् चकारान्तपदम् वाक् वाच् प्रातिपदिकं चकारान्तपदम् वर्त्म प्रातिपदिकं वर्त्मन् नकारान्तपदम्
अस्तु समीचीनं भगिनी अस्तु इदानीं तत्र अत्र किञ्चित् वक्तव्यम् अस्ति तत्र परिचयः तु तत्र यदि पश्यामः तत्र किम् अस्ति पूर्वस्मिन् पुटे तत्र हा तत्र पूर्वस्मिन् पुटे तत्र हलन्तपुल्लिङ्गशब्दाः इति प्रथमाविभक्तिः इति दत्तमस्ति किन्तु अस्मिन् कोष्टके सावधानं यतोहि तत्र दत्तानि पदानि सर्वाणि पुल्लिङ्गपदानि इति तु नास्ति अतः पश्यामः तत्र योगी इति तत्र तु योगिन् तत्तु लिङ्गं किं योगी इति पदस्य किन्तु लिङ्गं
स्त्रीलिङ्ग
योगी योगी
स्त्रीलिङ्गपदं
पुल्लिङ्गं पुल्लिङ्गम् अस्ति पुल्लिङ्गं योगी हा योगी पुल्लिङ्गपदम् योगिनी भिन्नम् अस्ति योगिनी स्त्रीलिङ्गपदम् अस्ति नदीवत् योगिनी किन्तु तत्र योगी तत्र शिक्षार्थी इति अधिकारी सर्वं दृष्टवन्तः खलु तत्र योगी अपि तादृश एव तत्तु पुल्लिङ्गम् अस्ति इदानीं कर्म कर्मन् इति नकारान्तपदम् तत्र लिङ्गं किं नरेश महोदय कर्म हा नपुंसकलिङ्गपदम् अस्ति हा कर्मण् इति तत्र रूपं किं भवति तत्र वंशीसुध भगिनि कर्मण् इति पदस्य रूपं प्रथमविभक्तौ किम् अस्ति नपुंसकलिङ्गपदम् अस्ति
भगिनी नास्ति महोदय
हा भगिनी नास्ति अस्तु हा श्रीप्रिया भगिनि तत्र
कर्म कर्मणि कर्माणि
हा इति अस्ति अतः तत्र नपुंसकलिङ्गपदमपि अस्मिन् कोष्टके दत्तम् अस्ति अतः किञ्चित् सावधानम् आवश्यकम् अत्र तदनन्तरं वच् वचः इति अस्ति वचस् किन्तु तत्र वचस् तदपि तत्र किम् अस्ति यदि कोष्टकं तत्र स्वरूपमहोदयस्य करपत्रं पश्यामः तत्र सकारान्तपदं किम् अस्ति तत्र
न
वाच् नास्ति वच् वच् अस्ति
नपुंसकलिङ्ग
हा वचस् इति वचः वचसि वचांसि इति
महोदय पुल्लिङ्ग अपि च नपुंसकलिङ्ग भेदः कथं जानीमः महोदय
केवलं तत्र बहुवारं दृष्ट्वा एव भगिनि हा अतः किन्तु तत्र हलन्तपदानां एतदेव वैशिष्ट्यं पूर्वमपि उक्तं तत्र तृतीयाविभक्तितः सप्तमीपर्यन्तं तत्र प्रायशः लिङ्गभेदः साधारणतया न दृश्यते एव तत्र न निर्णेतुं शक्नुमः तत्र लिङ्गं किम् इति हलन्तपदानां तत्र रूपाणि तृतीया वा चतुर्थी रूपं दृष्ट्वा किन्तु यत्र भेदः भवति इत्युक्ते तत्र प्रथमा अथवा द्वितीया विभक्तौ भेदः भवति अपि तत्र किं तत्र नपुंसकलिङ्गे तु भेदः अस्ति एव तत्र मनः मनसि मनांसि इति अस्ति अथवा हलन्तपदम् अस्ति तत्र पश्यन्तु तत्र करपत्रमध्यस्य करपत्रे तत्र जगत् जगति जगन्ति एकमस्ति नपुंसकलिङ्गे अथवा कर्म कर्मणि कर्माणि अथवा धनुः धनुषि धनूषि मनः मनसि मनांसि इति अतः तत्र प्रथमाविभक्तिरूपं जानीमश्चेत् जानीमः तत् नपुंसकलिङ्गं वा अथवा न पुल्लिङ्ग अथवा स्त्रीलिङ्गतयोः मध्ये भेदः प्रायशः किञ्चित् तत्र निर्णयः किञ्चित् क्लेशकरः एव इति मन्ये. अस्तु, तत्र बिशक् इति जानीमः बिशच् इति, सुहृत् अपि जानीमः, विपश्चित् अपि तद् चिन्तयामि तदपि पुल्लिङ्गपदमिति, आत्मन् पुल्लिङ्गपदं, त्वच् इति तत्र किम् अस्ति, हा तदपि तत्र स्त्रीलिङ्गपदम् अस्ति, वाक् अपि स्त्रीलिङ्गं, हा अपि वर्त्म इति नपुंसकलिङ्गम् अस्ति, वर्त्मन् इति नपुंसकलिङ्गपदम् अस्ति तत्र, अतः तत्र किञ्चित् सावधानम् अपेक्षितम् अस्ति तावदेव. अस्तु तर्हि, वर्त्म इत्युक्ते शरीरः इति मार्गः इति मन्ये भगिनि, मार्गः इति मन्ये, हा इति मन्ये मार्गः इति. अस्तु तर्हि तत्र अग्रे अग्रे गच्छामः. इदानीं तत्र वेदा भगिनी अधोभागे यत् अस्ति तत् पठति वा, अधो अधोभागे द्वितीयपुस्तकम्.
आम् महोदय, हलन्तशब्दानां बहुवचनरूपं रूपं दृष्ट्वा अपि प्रातिपदिकस्य अन्तनिर्धारणं कर्तुं शक्नुमः. यथा योगिन् एकवचनं द्विवचनं बहुवचनरूपं दत्तमस्ति, अन्तः किम् इति.
अतः भगिनि तत्र केवलं तत्र प्रातिपदिकं, तदनन्तरं बहुवचनरूपम् एकवारं पठतु भगिनि.
योगिन् योगिनः नकारः, वचस् वचांसि सकारः, सुहृद् सुहृदः दकारः, वाच् वाचः चकारः, विषच् विषजः जकारः, महान्
हा तत्र हा तत्र प्रायशः महत् इति भवितव्यं खलु तत्र, यतोहि तकारः इति वदन्ति खलु
तकारः,
हा अतः प्रातिपदिकं महत् इति एव.
ओ ओके, करेक्ट् करेक्ट्, महत्
महत् इति तका इति प्रातिपदिकं प्रथमविभक्ति एकवचने महान् महान्तौ
महान्तः सत्यम्. एतेषां प्रातिपदिकानाम् अन्तिमवर्णः व्यञ्जनमस्ति, व्यञ्जनानां हल् इति नाम, अतः एते हलन्ताः शब्दाः इति उच्यन्ते. हल् अन्ते यस्य सः हलन्तः,
हा हलन्तपदं हलन्तशब्दः इत्युक्ते यस्य अन्ते हल् अस्ति, व्यञ्जनम् अस्ति, सः
सः हलन्तः
सः हलन्तः इति. अस्तु समीचीनम्. अस्तु
अहं पठामि वा महोदय अग्रे.
हा अस्तु भगिनि अग्रे अग्रिमे तत्र अग्रिमे पुटे तत्र अभ्यासः तत्र प्रथम अभ्यासः त्यजामः तत्र किं तत्तु अत्र वर्गे न कर्तुं शक्नुमः. अस्तु इदानीं द्वितीय अभ्यासः भगिनि.
हलन्तशब्दानां प्रथमाविभक्तिरूपाणि उदाहरणे दर्शितानि सन्ति, यतोदाहरणम् अन्येषां शब्दानां प्रथमाविभक्तिरूपाणि लिखत. प्रातिपदिकम् एकवचनं द्विवचनम् अपि बहुवचनं उपयुज्य श्रीमन् इति पदस्य श्रीमान् श्रीमन्तौ श्रीमन्तः इति भवति. वणिज् इति वणिक् वणिजौ वणिजः.
समीचीनं भगिनि. अस्तु अग्रे अरुणा भगिनी अस्ति वा
महोदय?
हा अस्तु भगिनि अग्रे तत्र सुहृद् इति रूपाणि एकवारं.
सुहृत्
सुहृद् तत्र रूपं किम् अस्ति भगिनि? सुहृद् सुहृदः तावदेव समीचीनं भगिनि. हा अस्तु अग्रे ललिता भगिनि.
पतिन् पतिन् पन्ताः.
हा एतत् पुनः एतत् तत्र अस्मिन् अस्मिन् पुस्तके तत् न तत्र दत्तवन्तः, किन्तु तत्र
नकारान्त पतिन्
नकारान्तपदम् अस्ति किन्तु तत्र साधारणपदं नास्ति तत्र यदि यदि परिचयं कर्तुं तत्र आरम्भे तत्र सामान्यरूपस्य अभ्यासं करणीयम् इति अतः तत्र तत्र पन्ताः पन्तानौ पन्तानः तत्र मार्गः इति मार्गः इति अर्थे मार्गः किन्तु तत्र विशेषपदम् अस्ति हा समीचीनं भगिनि अस्तु अग्रे उषा भगिनि चकारान्तपदम् अस्तु नरेश महोदय
आत्मन् आत्मा आत्मनौ आत्मनः
आत्मा आत्मानौ अपि बहुवचने पुनः एकवारं महोदय
आत्मनः
आत्मानः
आत्मानः इति प्रथमाविभक्ति आत्मानः इति मन्ये महोदय नरेश महोदय
आत्मन् प्रथमविभक्ति एकवचनं आत्मा आत्मनौ
आत्मानौ इति अस्ति खलु महोदय तत्र आत्मा
आत्मानौ
आत्मा आत्मानौ आत्मानः आत्मनः तत्र आत्मनः इति भवति चेत् तत्र किं भवति क्लेशः भवति यतोहि आत्मनः तु तत्र पञ्चमी वा षष्ठी वा एकवचने अतः अतः किञ्चित् सावधानं तावदेव महोदय अस्तु
आत्मानः
इति समीचीनं महोदय अस्तु अग्रे श्रीप्रिया भगिनि तत्र किं भवति तत्र कर्म इति तु नपुंसकलिङ्गपदम् अस्ति किन्तु तत्र तु भीमकर्मन् इति अस्ति तत्तु पुल्लिङ्गे अस्ति अतः तत्र किं भवति एतादृश शब्दः तत्र यदि एतादृशं पदं यदि पश्यामः तत्र चिन्तनं किं भवेत् इत्व्युक्ते तत्र प्रायशः बहुव्रीहिसमासः अत्र अस्ति इति हा यतोहि तत्र एव लिङ्गपरिवर्तनं भवति तत्र किं भवति तत्र भीमकर्म आत्मा आत्मन् पदमिव भवति तत्र भीमकर्म इति रूपं तत्र यस्य कर्म इति तत्र कर्म इति एव विषयः नास्ति किन्तु यः किमपि कर्म कृतवान् तत्र कर्मस्य विषये तत्र भीम इति पदम् अस्ति अतः तत्र तादृशं कर्म कृतवान् इति किमपि अस्ति अतः किन्तु तत्र कर्म इति विषयः नास्ति भीम इति विषयः नास्ति यः एतत् कर्म कृतवान् तस्मिन् विषये एतत् पदं किमपि वदति अतः तत्र अन्यपदप्राधान्यम् इति वदामः अतः तत्र यद्यपि कर्म इति पदं नपुंसकलिङ्गे अस्ति भीमकर्म तु पुल्लिङ्गपदम् अस्ति
अस्तु
बहुव्रीहि तत्र किं तत्र यस्य कर्म भीमम् इति प्रायशः तादृशम् अस्ति भगिनि अथवा तत्र
अन्य विश्वकर्मन् ब्रह्मन् अस्ति
तत्र किन्तु तत्र प्रायशः तत्र किं अन्यत् उदाहरणं तत्र
महोदय तत्र अनुभूतिः इति स्त्रीलिङ्गे अस्ति
विश्वकर्मन् अस्ति
विश्वकर्म
ददामि वा
किं भगिनि वदतु भगिनि
अनुभूतिः इति स्त्रीलिङ्गे अस्ति, किन्तु अपरोक्षानुभूतिः इति पुंलिङ्गः भवति. यस्य अपरोक्षानुभूतिः अस्ति सः इति, तत्र अनुभूतिः स्त्रीलिङ्गे अस्ति किन्तु अपरोक्षानुभूतिः इति पुंलिङ्गे भवति.
हा अस्तु भगिनि, धन्यवादः. हा अस्तु, अतः तत्र यस्य इति उपयुज्य तत्र बहुव्रीहि समासः भवेत्, तत्र लिङ्गपरिवर्तनं भवितुम् अर्हति. धन्यवादः भगिनि. हा श्रीप्रिया भगिनि, इदानीं समीचीनं वा?
आम् महोदय.
हा तादृश अनेकः अनेकः शब्दाः सन्ति.
भीम इव यस्य कर्म अस्ति सः भीमकर्म इति वक्तव्यं महोदय.
तादृशः तत् तादृ तदेव इति न, किन्तु तादृशः तादृशप्रयोगः.
धन्यवादः.
अस्तु अग्रे वेदा भगिनि.
हा महोदय, योगिन् योगी योगिनौ योगिनः.
हा समीचीनम् अस्तु. शोभा भगिनि.
ओ विद्वस् विद्वांसः अस्तु, तत्र सकारान्त पदं विद्वस्
न न विद्वान् इति अस्ति तत्र.
विद्वस् इति प्रातिपदिकं विद्वान् तत्र भवान् इति भवति वा विस्मर
न न सकारान्तपदम् अस्ति किन्तु विद्वान् इति भवान् इति पदं तादृशमस्ति. विद्वान् विद्वांसौ
विद्वांसौ विद्वांसः
विद्वान् विद्वांसौ विद्वांसः तत्र तत्र स्वरूपमहोदयस्य करपत्रे द्वितीयपुटे अस्ति तत्र सकारान्तपदम्. एतत् सामान्यपदम् इति वक्तुं शक्नुमः, यतोहि तत्र बहुत्र दृश्यते. अतः तत्र यत् स्वरूपमहोदय यानि पदानि सः स्थापितवान् अत्र, तानि पदानि सर्वाणि सामान्यपदानि. अतः तत्र उपकारः एव तत्र यदि तत्र मनसि स्थापयामः. अस्तु इदानीं तत्र अस्तु, समयः अपि जातः, किन्तु तत्र किं कुर्मः. अस्तु अग्रिमे वर्गे तत्र अग्रिमपुटं तत्र एकादशपुटं पठामः. अस्तु तर्हि तत्र अद्य बहु किमपि कृतवन्तः, किन्तु तत्र किञ्चित् क्लेशः आसीत् यतोहि तत्र प्रथमतया स्त्रीलिङ्गपदानि पठितवन्तः, इदानीं तदनन्तरं पुल्लिङ्गपदानि पठितवन्तः, किन्तु अग्रे गत्वा तत्र पुल्लिङ्गपदमेव भवति, तत्र पुटद्वयं, तदनन्तरं स्त्रीलिङ्गम् अपि नपुंसकलिङ्गम् अग्रिमे तत्र अध्याये तत्र अहं वर्षं निगृह्णामि इति. हा अतः तत्र अस्तु तर्हि अत्र विरमाम. तत्र अन्ते तत्र वेदा भगिनी तत्र शान्तिमन्त्रं वदति वा, तदनन्तरं
सर्वे भवन्तु सुखिनः.
तावदेव तावदेव.
सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. सर्वं कृष्णार्पणमस्तु. गोविन्दः.
धन्यवादः भगिनी.